इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिन शर्मा। आदौ मुख्य वार्ताः। प्रधानमन्त्रिणा नरेन्द्र मोदिना दशसु राज्येषु द्वयोः केन्द्रशासित प्रदेशयोः च स्वामित्व योजनायाः अन्तर्गतं 65 लक्षाधिकं सम्पत्तिपत्राणि वितरितानि। इयं योजना भूमि प्रबन्धने ग्रामीण समुदायानां शक्तिकरणाय महत्वपूर्णा अस्तीति प्रधानमन्त्री अवोचत। प्रधानमन्त्री नरेन्द्र मोदी श्वः मन की बात इत्येतस्य कार्यक्रमस्य 18th संस्करणे देशवासिभिः साकं विचार विनिमयं करिष्यति। 70-सदस्यात्मिकायाः दिल्ली विधानसभायाः निर्वाचनार्थम् आहत्य 21,500,000 नामांकनानि पंजीकृतानि। गजायुद्धविरामाय बन्धकानां विमुक्तये च हमासेन सह जातायाः सन्धेः प्रथमे सोपाने इस्राइल देशः 35,700 फिलिस्तीन देशीयान् बन्धकान् विमोचयिष्यति। अपि च खोखो इति विश्व चषक प्रतिस्पर्धायाम् अद्य भारतीय पुरुष महिला दले उपान्त्यचक्राय क्रीडिष्यतः। अथ वार्ताः विशदीकृत्य। प्रधानमन्त्री नरेन्द्र मोदी अद्य दृश्य श्रव्य परान्तर्जालीय माध्यमेन सम्पत् स्वामिभ्यः स्वामित्व योजनान्तर्गतं 65 लक्षाधिकानि सम्पत्ति पत्रकानि वितरितवान्। दशराज्यानां द्वयोः केन्द्रशासित प्रदेशयोः 50,000 ग्रामेषु सम्पत्ति पत्रकानि वितरितानि। अवसरेऽस्मिन् प्रधानमन्त्रिणा प्रोक्तं यत् ग्रामीण अर्थव्यवस्थायै इदम् ऐतिहासिकं दिनं वर्तते। तेनोदीरितं यत् स्वामित्व योजनायाः क्रियान्वयनानन्तरं विगतेषु 25,000,000+ सम्पत्ति पत्राणि निस्सारितानि सन्ति।
एक आकलन है कि सभी गांवों में प्रॉपर्टी कार्ड बनने के बाद 100,00,000,00,000 रुपये से ज्यादा की आर्थिक गतिविधि का रास्ता खुल जाएगा।
लाभार्थिभिः सह संवादक्रमे श्रीमोदिना प्रोक्तं यत् सम्पत्तेः प्रलेखपत्राणामभावः विशिष्ट समस्या वर्तते। एताः समस्याः विवादास्पदाः भवितुमर्हन्ति। तेनोदीरितं यत् सम्पत्तेः उचितप्रलेखपत्रैः वित्तालयेषु ऋणप्राप्तौ सरलता भविष्यति। सहैव तेन कथितं यत् सम्पत्तेः प्रलेखपत्राणि देशे 100,00,000,00,000 रूप्यकाणाम् आर्थिकक्षमताम् उद्घाटयिष्यन्ति।
स्वामित्व योजना से गांव के विकास की प्लानिंग और उस पर अमल अब काफी बेहतर हो रहे हैं। आज हमारे पास स्पष्ट नक्शे होंगे तो विकास के काम की प्लानिंग भी सटीक होगी। अब प्रॉपर्टी राइट्स मिलने से ग्राम पंचायतों की मुश्किलें भी दूर होगी।
प्रधानमन्त्रिणा कथितं यत् स्वामित्व योजनायां ग्रामीण अर्थव्यवस्था विकासस्य मुख्यस्तम्भः भविष्यति। श्रीमोदिना कथितं यत् प्रशासनेन भूम्यभिलेखानां प्रविधिकरणे अपि कार्यं विधीयते। तेन प्रोक्तं यत् विगतेषु 17 वर्षेषु देशे 98% भूम्यभिलेखानां प्रविधिकरणं समभवत्। तेन एतदपि प्रोक्तं यत् सम्पत्तेः अधिकारप्रापणेन ग्रामपञ्चायतानामपि समस्याः दूरीभविष्यन्ति। सहैव वैधसम्पत्तिप्रलेखैः आपत्स्थितौ सम्पत्तेः स्वामित्वप्रदर्शनमपि सरलीभविष्यति। प्रधानमन्त्री नरेन्द्र मोदी श्वः 11 स्वीये मन की बात इत्येतस्मिन् कार्यक्रमे देशवासिभिः साकं विचार विनिमयं करिष्यति। मन की बात इत्यस्य मासिक कार्यक्रमस्य इदम् 18th संस्करणं भविष्यति। अस्य कार्यक्रमस्य प्रसारणम् आकाशवाणी दूरदर्शनयोः सर्वाभिः वाहिनीभिः भविष्यति। अयं कार्यक्रमः आकाशवाणी दूरदर्शन प्रधानमन्त्री कार्यालय सूचना प्रसारण मन्त्रालयानां यूट्यूब वाहिनीष्वपि द्रष्टुं शक्यते। प्रधानमन्त्रिणः सम्बोधनानन्तरम् अयं कार्यक्रमः क्षेत्रीय भाषासु अपि प्रसारयिष्यते। 70-सदस्यात्मिकायाः दिल्ली विधानसभायाः निर्वाचनार्थम् आहत्य 21,500,000 नामांकनानि पंजीकृतानि। निर्वाचनानुयोगानुसारि ह्यः नामांकनस्य अन्तिमदिने 80,000+ नामांकनपत्राणि समंकितानि। आयोगेन प्रोक्तं यत् नवदिल्ली विधानसभाक्षेत्रे सर्वाधिक नामांकनपत्राणि पंजीकृतानि वर्तन्ते। एतस्मै आसनाय आहत्य एकोनत्रिंशत् प्रत्याशिभिः चत्वारिंशत् नामांकनपत्राणि अपूर्यन्त। आम आदमी पार्टीति दलस्य राष्ट्रिय संयोजकः अरविन्द केजरीवालः भाजपेति दलस्य परवेश वर्माणं तथैव कांग्रेस दलस्य संजीव दीक्षितञ्च विरुध्य निर्वाचनद्वन्द्वे भागं भजिष्यति। आयोगेन एतदपि प्रोक्तं यत् अष्टादश प्रत्याशिभिः कालकाजीति आसनात् अष्टाविंशति नामांकन पत्राणि प्रपूरितानि सन्ति। यतः वर्तमान मुख्यमंत्री आतिशी भाजपायाः रमेश विधुड़ी कांग्रेसस्य अलबा लांबा इत्येतञ्च निर्वाचन द्वन्द्वे सम्मुखीकरिष्यति। नामांकन पत्राणाम् अनुसन्धेय कार्यं जायमानमस्ति। नामांकन प्रत्यावर्तनस्य अन्तिमतिथिः अस्य मासस्य विंशतिः दिनांकं यावत् वर्तते। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि समुपलब्धो भविष्यति। सम्प्रति श्रूयन्ताम् कुम्भसम्बद्धाः वार्ताः प्रवाचिकया निधिना सह।
आध्यात्मिक संगम नगरे प्रयागराजे श्रद्धालवः तीर्थयात्रिणश्च अधुना आकाशवाण्याः महाकुंभ सम्बद्धाः कुंभवाणी वार्ताः सार्वजनिक सम्बोधन प्रणाल्याः माध्यमेन श्रोतुं शक्नुवन्ति। अद्य प्रातःकाले 8:30 कुंभवाणी वार्ता प्रसारणं महाकुंभ नगर्यां सार्वजनिक सम्बोधन प्रणाली माध्यमेन जातम्। अनेन पदक्षेपेण श्रद्धालुभ्यः तीर्थयात्रिभ्यश्च मेलक सम्बद्धानां विविध क्रियाकलापानां सूचनां प्रदास्यति। 10-निमेषात्मिकीयाः इयं कुम्भवाणी वार्ताः प्रातःकाले 8:30, मध्याह्ने 2:30, अपरत्र सायंकाले 8:30 प्रसारयन्ते। अस्याः कुम्भवाणी नामाख्यायाः वाहिन्याः शुभारम्भः अस्य मासस्य 10मे दिनांके प्रयागराजे उत्तरप्रदेशस्य मुख्यमन्त्रिणा योगी आदित्यनाथेन, केन्द्रीय सूचना प्रसारण राज्यमन्त्रिणा डॉ एल मुरुगन इत्यनेन च कृतः। महाकुम्भाय समर्पिता इयं कुम्भवाणी फरवरी मासस्य 26 दिनांकं यावत् प्रचलिष्यति। अत्रावधौ उत्तरप्रदेशस्थे तीर्थराजे प्रयागराजे प्रचल्यमाने दिव्यानुष्ठाने महाकुम्भे बृहत्तमायां संख्यायां श्रद्धालवः समायान्ति, अपि च त्रिवेणी संगमे पवित्रावगाहनं कुर्वन्ति इति। शुभावसरेऽस्मिन् रक्षामन्त्री राजनाथसिंहः अपि संगमे पुण्यावगाहनं समाचरितवान्। पवित्रस्नानानन्तरं कृतार्थः अनुभूयते मया इत्यपि सः उक्तवान्। अग्रे च कथितवान् यत् इदं हि खलु भारतीय सांस्कृतिक सनातन धर्मस्य आध्यात्मिक अनुभूतेः च पवित्र पर्व विद्यते इति।
भारतामेरिका देशाभ्याम् एकस्मिन् सहभागिता ज्ञापनपत्रे हस्ताक्षरं कृतम्। एतत् सन्धिपत्रम् आन्तर्जालिकापराध निरीक्षणे सहयोग सूचनयोः विवरणेन सम्बद्धं वर्तते। गजायुद्धविरामाय बन्धकानां विमुक्तये च हमासेन सह जातायाः सन्धेः प्रथमे सोपाने इस्राइलदेशः 35,700 संख्याकान् फिलिस्तीदेशीयान् बन्धकान् विमोचयिष्यति। मलेशियायामद्य द्वितीया आईसीसी अण्डर 19 इति महिला क्रिकेट विश्व चषक स्पर्धा समारब्धा। प्रथमे द्वन्द्वे ऑस्ट्रेलिया दलेन स्कॉटलैंड दलं 9-2 पराजितम्। खोखो इति विश्व चषक प्रतिस्पर्धायाम् अद्य भारतीय पुरुष महिला दले उपान्त्यचक्राय क्रीडिष्यतः। भारतीय महिला दलमद्य सायं नवदिल्ल्याः इन्दिरा गांधी आन्तरिक क्रीडांगणे दक्षिणाफ्रीका दलेन सह स्पर्धिष्यति। तदनु भारतीय पुरुष दलमपि दक्षिणाफ्रीकायाः पुरुष दलेन सह स्पर्धां करिष्यति। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्न क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः FM गोल्ड प्रवाहिकातः रविवासरे मध्याह्ने 12:30 भविष्यति इति वार्ताः।